अतः फलश्रुतिः इति दवनशङ्कर्यः प्रोक्तं नाम सहस्रकम् शान्तिदं पुष्टिदं पुण्यं महापत्तिविनाशनम् दारिद्र्यदुःखशमनं नानारोगनिवारणम् इदं स्तोत्रपठेद्भक्त्या यस्त्रिसन्ध्यं नरः शुचिः नारीवानियता भक्त्या सर्वान् कामानवाप्नुयात् अस्य स्तोत्रस्य सततं यत्र पाठः प्रवर्तते तस्मिन् गृहे महालक्ष्मी स्वभर्त्रा सह मोदते नानेन सदृशं स्तोत्रं भुक्तिमुक्तिप्रदायकम् विद्यतेऽन्यत् सत्यमेतत् शक्रवच्मि पुनः पुनः बकवन्ध्या काकवन्ध्या नारी स्तोत्रमिदं पठेत् वर्षेणैकेन सा पुत्रं लभेन्नात्रास्ति संशयः सामान्यकार्यसिद्धिस्तु शतावर्तनतो भवेत् महाकार्यस्य सिद्धिस्तु सहस्रावर्तनाध्रुवम् यत्र तत्पठ्यते स्तोत्रं गृहे भक्त्या निरन्तरं न तत्र पीडा जायते भूतप्रेतग्रहोद्भवा लोकवश्यं राजवश्यं स्तोत्रस्य पठनाद्भवेत् शत्रवः संशयं यान्ति दस्य वः पिशुनास्तता नैव शाकम्भरी भक्ताः सीदन्ति बलसूदना शाकम्भरी स्वभक्तानामवित्री जननी यथा यद्यत् कार्यं समुद्दिश्य ध्यायन् शाकम्भरीं हृदि स्तोत्रमेतत् पठेत्तस्य तत्कार्यं च प्रसिद्ध्यति मुच्यते बन्धनाद्बद्धो रोगी मुच्येतरोगतः ऋणवान् ऋणतो मुच्येन्नात्र कार्या विचारणा पौषे मासिसिते पक्षे प्रारभ्यतिथिमष्टमीम् देव्या आराधनं कुर्यादन्वहं पूर्णिमावधि सशाकैरुत्तमान्नैश्च ब्राह्मणांश्च सुवासिनीः सन्तर्पयेद्यथा शक्तिदेवीं सम्पूज्य भक्तितः वित्तशाठ्यं न कुर्वीत शाकम्भर्याः समर्चने तस्मै प्रसन्ना भक्ताय दद्यात् कामानभीप्सितान् विद्यार्थी प्राप्नुयाद्विद्यां धनार्थी चाप्नुयाद्धनम् दारार्थी प्राप्नुयाद्दारानपत्यार्थी तदाप्नुयात् आप्नुयान्मन्दबुद्धिस्तु ग्रन्थधारणपाटवम् अस्य स्तोत्रस्य पाठेन प्राप्नुयाद्यद्यदीप्सितम् अयुतावर्तनादस्य स्तोत्रस्य बलसूदन पश्येच्छाकम्बरीं साक्षात् तद्भक्तो नात्र संशयः ओमं च कुर्याद्विधिवत् पायसेन ससर्पिषा सौभाग्यद्रव्ययुक्तेन सेक्षु कूष्माण्डकेन च सुवासिनिः कुमारींश्च ब्राह्मणांश्च दिने दिने सम्भोजयेत् सदन्नेन ससिता मधुसर्पिषा दध्यात्तेभ्यश्च ताभ्यश्च वस्त्रालङ्कारदक्षिणाः तस्मै शाकम्भरी दद्यात् पुरुषार्थचतुष्टयम् आचन्द्रार्कं तस्य वशस्तास्यत्यत्र गुणी सुखी शाकम्भर्यै नमः इति यस्तु मन्त्रं षडक्षरम् भक्त्या जपेन्नरस्तस्य सर्वत्र जयमङ्गलम् शाकम्भर्या इदं शक्रदिव्यं नाम सहस्रकम् गुरुभक्ताय शान्ताय देयं श्रद्धालवे त्वया त्वमप्याखण्डल सदा पठेदं स्तोत्रमुत्तमम् शत्रून् जेष्यसि सङ्ग्रामे सर्वान् कामानवाप्स्यसि इति श्रुत्वा स्कन्दवाक्यं शक्रः सन्तुष्टमानसः प्रणम्य गुहमापृष्ट्वा सगणस्वदिवं ययौ सूत उवाच दुर्भिक्षे ऋषिपोषिण्यः शाकम्भर्यः प्रकीर्तितम् इदं नाम सहस्रं वः किं भूय श्रोतुमिच्छथ इति स्कन्दपुराणे उत्तरकाण्डे महासरस्वत्युपाख्याने शक्रस्कन्दसंवादे सर्वार्थसाधनं नाम शाकम्भरीसहस्रनामस्तोत्रं सम्पूर्णम्।